सर्वेभ्यो नमस्काराः. अद्य सिद्धान्तकौमुद्याः विसर्गसन्धिप्रकरणमारभ्यते. येनाक्षरसमां नायमधिगम्यमहेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयं. मुनित्रयं नमस्कृत्य तदुक्तिः परिभाव्य च वैयाकरणसिद्धान्तकौमुदीयं विरच्यते. पञ्चसन्धिप्रकरणम् इति सन्धिप्रकरणं सर्वम् आहत्य उच्यते. तत्र आदौ अच्छन्धिः, ततः अच्छन्धौ प्रकृतिभावः, हल्सन्धिः, विसर्गसन्धिः, स्वाधिसन्धिः इति पञ्चसन्धयः. दर्स् एक्चुली अ ह्यूज् कन्फ्यूजन् इन् वाट् एक्साक्ट्लि इस् विसर्गसन्धि. बिकास् यु सी द विसर्ग टेक्स् नम्बर् आफ़् फार्म्स् अन्लैक् अदर् थिङ्ग्स् वेर् यु हेव् वेर् एवर् यु हेव् अ विसर्ग it manages to convert itself into a variety of forms, and its visarga sandhi is actually a misnomer. What we study in say school or college, if you studied Sanskrit at the high school level, there is something called visarga sandhi. Visarga sandhi itatra visargasya repadeshah, visargasya uttam, visargasya lopah ityadi ritya sandhayah pathyante. It is a general way of studying. The visarga sandhis are categorized into, I think, six. They say visarga rephadeshaha, visarga sakaradeshaha, visarga lopaha, visargasya utvam, gunaha purva ropaha, jishvamuliyaha, upadhaniyaha, ityari ritya vibhajyate. But actually you find that there are many cases where there is no visarga at all. As in, if we are talking of a visargasya rephadeshaha, it is actually completely wrong concept, because there is no visarga there involved, right? And there are some cases where the visarga is involved and is converted into something else. That is why you have, I mean, it seems at the first instance there arises a confusion between visarga sandhi and swadhi sandhi. Visarga sandhi hi nama yatra visargasya vikaraha drishyate tatraiva visarga sandhi. Atsandhi hi ityukte yatra swarasya vikaraha सः स्वरसन्धिः अथवा अच्सन्धिः. यत्र हलः विकारः तत्र हल्सन्धिः. यत्र विसर्गस्य विकारः तत्र विसर्गसन्धिः. इट् इस् द करेक्ट् टर्म् वेर् वी हेव् विसर्ग एण्ड् द विसर्ग इस् कन्वर्टेड् इन् टु संथिङ्ग् एल्स्. दट् इस् द प्रापर् विसर्गसन्धि, एण्ड् दट् इस् वाट् हेस् बीन् डेल्ट् इन् द कौमुदी अण्डर् द नेम् विसर्गसन्धि. बट् वाट् वी कामन्लि थिङ्क् आफ् एस् विसर्गसन्धि we do not see here. It comes in the next prakarana, which is swadhi sandhi, because the visarga is not actually involved there. So before, and therefore it's very important to have a after we do visarga sandhi and swadhi sandhi, likelihood is that you'll end up being completely confused, because first thing, there is a lot number of karyas which happen, and there are a number of different sutras which mandate these karyas. And there are many different possible scenarios which are possible, which involve the visarga. Okay. So before we start with the visarga sandhi, maybe we should look at a few rupas and see what are the forms that visarga takes. As in, we'll see the prayoga and then see, go to the sutra and see how we end up with those prayogas. Okay. So in each of these cases, I'll give, there is a question which involves, the vigraha involves a visarga. I like you to tell what is the final rupa, right? For example, if you start with Ramaha api, what is the form? Prayoge kim rupam Ramaha api ityatra kas sandhihi. Anybody, I mean, let's please go through these quickly. I'm sure you all know these. Ramaha api. Hema.
Ramaha api.
Ramo api. Kas sandhihi?
Engi padarupa, enga padanta adari.
Actually, yeah. So, the final thing is enga padanta adari. This is a...
Visarjaniyasya saha?
No, there is no saha here. I mean, you would not know the sutra. Let's not go into the sutras now, because I'm just looking at the prayoga. So, Ramaha plus api is Ramopi. What is Ramaha plus api?
Ramaha
किं रूपं रूपे ज्ञाते एव शास्त्रं ज्ञातुं शक्यते. हीरालालजि रामा अपि विसर्गस्य लोपः इत्युच्यते सामान्यतः. रामः अपि रामोपि रामाः अपि इत्यत्र तु रामा अपि. हरिः अपि एनिबडि एल्स् हरिः अपि किं रूपम् हर्यपि नो हरिरपि प्रिया आन्सर् सो हरिः अपि इत्यत्र हरिरपि इति रूपं विसर्गस्य स्थाने नास्ति. यत्र विसर्गः आसीत् तत्र रेफः दृश्यते. हियर् यु हेड् अ लोप यु केनाट् सी द विसर्ग हियर् एमोर् हियर् you have an okara okara here you have a repha guruhu iha guruhu iha kim bhavati रैट् ललिता सेस् गुरुरिह गुरुः इह इत्यत्र गुरुरिह इत्यत्र भवति. यथा हरिरपि तथा गुरुरिह इत्यत्रापि रेफः श्रूयते विसर्गस्य स्थाने रेफः. कृष्णः गच्छति This is not Krishna Gacchati. Anybody? Right. Krishna Gacchati. Krishna Gacchati Ityatra Okaraha Krishna Gacchati. Iti Rupa. Balaha Gacchanti. बालाः गच्छन्ति करेक्ट. हियर् आल्सो वी हेव् अ लोप सो दिस् थिङ्ग् वुड् बि बाला गच्छन्ति. बालाः गच्छन्ति इत्यत्र बाला गच्छन्ति. कविः गच्छति हीरालालजि कविर्गच्छति कविः गच्छति इत्यत्रापि रेफः कविर्गच्छति. ओके सो इफ् यु सी इन् दिस् सेट् यु हेव् फ्यू केसस् वेर् यु हेव् अ रेफ देर् आर् फ्यू केसस् वेर् देर् इस् अ लोप देर् आर् अ केस् वेर् यु हेव् एन् ओकार एण्ड् देर् इस् अ केस् वेर् यु हेव् एन् ओकार एण्ड् पूर्वरूप. In this set, you have four different things which the Visarga has taken. But this is not all. Ramaha Karoti. Ityatra kim rupam. Hema.
Ramaha Karoti.
Ramaha Karoti. right? Is that the only form?
Can be Rama Karoti because of Hali Sarvesham.
Hali Sarvesham will not apply here. No, Ramas Karoti is wrong.
Rama Karoti is Visarga Lopa.
No Lopa. Yeah, there is one form with the Jishma Mulia which is correct. Ramah Karoti. This is the Jishma Mulia. What would be the other form? This is my question. There is no Prakriti Bhava here. Sorry. I mean, the other form is very easy actually. The Visarga remains as it is. You can either have Ramah Karoti, the Jishma Mulia, or Ramah Karoti. Iti visarga eva. Vikalp, vikalpena jishma mooliya bhavati. Harihi patu. Hira Lalji. Hello. Hiralalji? No microphone? Okay. Harihi Patu? What would be the form? So there is one Upadmaniya as Harih Patu, or again there is a Visarga as Harihi Patu. So you would have two forms with Harih Patu and Harihi Patu. Yashaha Kamaha. What will happen here? Asuji?
No,
Yashaskamaha. Satyam. So even if we have a kakara, there are forms where we hear the sakara. It becomes Yashaskamaha. Shreyaskamaha, Yashaskamaha. Ityadini udaharana. There are shlokas. Shreyaskamona grinhiyat. Jeshta putra galatrayo. There are many places where you have Yashaskamaha, Shreyaskamaha, etc. So obviously there is an apavada for this. Namaha Karoti. Kim Syat. Okay, so everybody seems to know Namaskaroti is one form. Is it the only form? It is the most popular form, correct? But actually, namaskaroti, namahkaroti, namahakaroti. It is trinyapi rupani sadhuni. So there are all forms which are possible here. Okay. So, duhu karyam. Vasuji?
Dushkaryam.
Where you have the Murdhanya Shakara. Dushkaryam. Dhukaryam. Jishvamuliya Prapte. Dushkaryam. Iti Shattvam Shriyate. Guruhu Kshanena.
Guruhu Kshanena stays as Guruhu Kshanena.
Right. Guruhu Kshanena. Ityatra Guruhu Kshanena. Ityeva Rupam. Tatra jishvamuliya opi na bhavati. There is no jishvamuliya also. The visarga is heard as it is. Right? So if you look at this set, this is mostly where you have kakara and pakara, where by default you have to get jishvamuliya or upadhaniya. But you also see that there are cases where you have sakara you have an optional sakara, you have a shakara, you have a visarga itself. So again, this is a completely different set. Balaha saha. Suji?
It's again Balaha.
Only Balaha Saha with the Visarga?
With the Visarga as Balaha.
Okay. Any other forms? Hiralalji? I can't hear you. Okay, is something wrong with the microphone? Okay, any other forms? There are two forms here. One is with the Sakara Desha as Balas Saha. Aparamtu Visargayeva Bhavati Balaha Saha. Harihi Shete. There is one Harishyete with Talavya Shakara. Any other forms or only one form?
Yes, that also should have Harihi Chete.
Right.
That's the second.
Correct. So there are two forms. Atrapi Rupa Dvayam Bhavati. Harishyete, Harihi Shete. Balaha Tatra. Balaha Tatra. Balastatra, only one form. How many forms in Balaha Tatra? Only one, or can we have any other forms? No, actually here it is only Balastatra. If there is Samhita, the Sakara is compulsory, so Balastatra ityekam eva rupam. Ramaha Chinoti.
There it is Ramash Chinoti.
Right. Ramash Chinoti iti atrapi ekameva rupam. Ramash Chinoti. Okay, so you have compulsory sakara and optional sakara. You have a compulsory shakara, you have an optional shakara. Okay, and we are not yet over. Saha eshaha. Kim rupam. Saha eshaha. Hiralalji?
Visarga
lope.
Huh? Visarga
lope, sa esha. Visarga lope, sa esha. Esha Vishnu. Esha Vishnu.
same as above.
Right. So again you have Esha Vishnu. But Saha Eshaha also happens to be Saishaha. Saisha Rasha Rathi Ramaha. Where you have the same Saha and Eshaha, but you have Saishaha. Okay. Is this form correct, by the way? Have you heard scenes formed like this? So there is a special case where this is also correct. The normal case is Saeshaha, it is true, but there are special cases where this is also correct. So you can also see three Visarga Sandhis here. You have Saha Eshaha becomes Saishaha, Saishaha Dasharathihi has become Saisha Dasharathihi, and Dasharathihi Ramaha has given Dasharathi Ramaha. Right? Saisha Dasharathi Ramaha, Dasharathihi Ramaha. Visargaha nasti, purvatra dirghopi shruyate. Punaha ramate. What would be punaha ramate? Hema? Hello? Hema? Can't hear. Vasu?
Yes. Punar Ramate.
What is the final form? Is it Punar Ramate?
I think so.
No, actually.
Punar Ramate. We have to go to Puna.
Punar Ramate. Right. Antarashtriya, Antarashtriya. So those are the forms where you have a dirgha again. Dasharathi Ramaha, Punaramate, Manaha Rathaha. Okay, so mostly people know this.
Yeah.
Manorathaha. So you have, there are some cases where there is a visarga lopa and no sandhi. There are also cases where there is visarga lopa and there is sandhi. And there is a dirgha, where there is visarga lopa and dirgha. And there is again an okara. So this is just a, well, I have not covered all possible changes of the visarga here. But still we have, I think, four slides where you have the different things which are happening to Visarga. At least they seem to be happening to the Visarga, because everywhere in the left hand side you see the Visarga. But the curious part is, in most of these cases the Visarga itself is not involved. You see, in all these six cases which we see on screen, in none of these cases, none of these is a Visarga Sandhi. Atra Visarga Sandhireva Nasti. Because there is no visarga at all, you will not find a visarga here. Similarly, if you go to this slide, balastatra balasaha ramaschinoti, these are actual visarga sandhis, where there is visarga and the visarga is converted to something else. Similarly, this is also visarga sandhi, where you have a visarga and it is converted to something else. If you go back, the first thing, these are not visarga sandhis, because the visarga is not involved here. So it seems to be vigrahe visarga shruyate kintu ime visarga sandhayaha na. So the first and last things we saw are not visarga sandhis, whereas the second and third slides which we saw are visarga sandhis. So what is the difference? Can somebody tell where is it a visarga sandhi or where is it not? What's the difference between this and that? Hema? I can't hear you. It's too low.
So visarga becomes smallest saha.
Right, but it need not always be visarjaniyasya saha, right? The previous case where you don't have sakara. Correct. I want one general condition where there is visarga sandhi and where there is no visarga sandhi. I mean, there seems to be a visarga, but it is not technically visarga sandhi. I mentioned this before that a visarga appears only by one sutra, just karvasanayoho visarjaniyaha. So if there is a kar varna following, or if there is a avasana, this is the end. So we'll see that sutra first. Visarga sandhi prakarana purvameva atsandhi prakarane eva idam sutra madhitam. This karvasanayoho visarjaniyaha paradvayamasti karvasanayoho visarjaniyaha rori ityataha raha iti anuvartate. Raha iti shashti arthata rephasya sthane खरवसानयोः खरि खर्वर्णे परे ख फ छ ठ थ छ ट त क प श श स कर्कशव्यञ्जनेषु परेषु अथवा अवसाने विरामोऽवसानं वर्णानाम् अभावः अवसानसंज्ञः स्यात् खरवसानयोः परयोः रेफस्य स्थाने विसर्गः स्यात् इति सूत्रार्थः खरि अवसाने च परे रेफस्य विसर्जनीयः स्यात् राम ऋ इत्यस्ति सुप्रत्ययः रामशब्दात् प्रथमाविभक्तौ एकवचने सुप्रत्ययः तस्य ससजुषोरुः इत्यनेन ऋत्वम् इदानीं राम ऋ इति स्थिते अवसाने अग्रे किमपि नास्ति केवलं राम ऋ इत्येव अस्ति तदा अवसाने रेफस्य विसर्गः स्यात् इत्यनेन विसर्गादेशः रामः अथवा पुनर् तत्र इत्यस्ति रेफः अस्ति खर्वर्णः तकारः खर्वर्णः खर्वर्णे परे रेफस्य विसर्जनीयः स्यात् पुनः तत्र विष्णुर्त्राता विष्णु इति प्रातिपदिकं पुनः सुप्रत्ययः तस्य ऋत्वं विष्णुर्त्राता इति स्थिते तकारः खर्वर्णः खरिपरे रेफस्य विसर्जनीयः स्यात् सो द ओन्ली कण्डीशन् वेर् विसर्ग विल् अपियर् इस् इफ् देर् इस् एन् अवसाना or if there is a kharvarna following. If it is avasana, there is no sandhi happening later. Avasana means the visarga will remain as it is. There could be a chance of further sandhi if visarga is followed by a kharvarna. So visarga sandhi is the change that happens to a visarga when it is followed by a kharvarna. If it is not a kharvarna, there is no visarga. यथा रामः अपि तत्र वस्तुतः रामोऽपि इत्यत्र विसर्ग एव न भवति देर् इस् नो विसर्ग देर् इट् स्टाप्स् एट् सम् अदर् स्टेज् एण्ड् इट् मूव्स् आन् ए पेरलल् लैन् सो देर् आर् टू सेपरेट् स्ट्रीम्स् इट् आक्चुलि स्टार्ट्स् वित् द ऋ आर् द ऋत्व वि टेन् टु स्टार्ट् वित् विसर्ग बिकास् वि हियर् द विसर्ग इन् द लास्ट् टैम् बट् द एक्चुअल् वे टु स्टार्ट् इस् ऋ वेर् यु हेव् द रेफ The repha could be converted to visarga if it is followed by khar or avasana. It could remain as a repha or it could be converted to something else when followed by a swara and mridu vyanjana. That is how we have to deal with visarga sandhi. I mean, what is commonly known as visarga sandhi, but it is not actually visarga sandhi. Visarga sandhi is only one part of it where the repha has been converted to visarga by kharavasana or visarjaniyaha. खरवसानयोर्विसर्जनीयः इत्यनेन विसर्गे कृते तस्य विसर्गस्य ये विकाराः सम्भवन्ति ते एव विसर्गसन्धिप्रकरणे उच्यन्ते रेफस्य यद्यत् कार्यं भवति तत्तु स्वादिसन्धिप्रकरणे उच्यते दट् इस् द डिफ़रेन्स् बिट्वीन् विसर्गसन्धि एण्ड् स्वादिसन्धि सो इदानीं सिन्स् वि आर् एण्टरिङ्ग् विसर्गसन्धिप्रकरण द फस्ट् थिङ्ग् टु रिमेम्बर् इस् एव्रीवेर् हियर् There should be a visarga by kharavasanayor visarjaniyaha. No other sutra. There was a repha earlier which was converted to visarga by kharavasanayor visarjaniyaha. Visarjaniye krute kim kim bhavati. Iti idanim pashyamaha. Visarjaniyasya saha. Idamapi sutram halsandhi prakarane adhitam. We studied this in halsandhi. पदद्वयं विसर्जनीयस्य सः खरवसानयोर्विसर्जनीयः इत्यतः खरि इति अनुवर्तते. खरि इति सप्तमी अर्थात् खर्वर्णे परे कर्कषव्यञ्जने परे विसर्जनीयस्य इति षष्ठी विभक्तिः विसर्गस्य स्थाने षष्ठी स्थाने योग. सः इति प्रथमा विभक्तिः सकारस्य प्रथमा विभक्तिः सः सकारः भवति. विसर्गस्य स्थाने खरि परे सकारादेशो भवति इति सूत्रार्थः. खरि विसर्जनीयस्य सः स्यात्. किमुदाहरणं? विष्णुः त्राता. पूर्वत्र दृष्टं विष्णुर् त्राता इति स्थिते खरवसानयोर्विसर्जनीयः इत्यनेन विसर्गे कृते विष्णुः त्राता. अत्र विष्णुः इति विसर्गः, अग्रे खर्वर्णः अस्ति तकारः, खरि परे विसर्गस्य सः इत्यनेन विष्णुस्त्राता. सो दिस् इस् सकार, अ जनरल् सूत्र वेर् वेर् एवर् यु हेव् विसर्ग इट् इस् सपोज् टु बि कन्वर्टेड् टु सकार. Since we have seen from the earlier sutra that wherever there is khar, you get visarga. And this sutra tells wherever there is a khar, the visarga is converted to sakara. This is the general sutra. If there is no exception, the visarga is converted to sakara compulsorily. Kintu etad apavadatvena bahuni sutrani santi. Sharpare visarjaniyaha. Sutre padadvayamasti. खरवसानयोर् विसर्जनीयः इत्यतः खरि इति अनुवर्तते. विसर्जनीयस्य सः इत्यतः विसर्जनीयस्य इत्यपि अनुवर्तते. कः अर्थः? शर्परे खरि इति उभयमपि सप्तमी. शर् वर्णपरके, खर् वर्णे परे. स्टिल् द सेम्. वेन् विसर्ग इस् फालोड् बै ए खर् विच् इन् टर्न् इस् फालोड् बै ए शर् वर्ण. शर्परे खरि विसर्जनीयस्य स्थाने विसर्जनीयः विसर्ग एव भवति, नान्यत्. सो द विसर्ग इस् रिप्लेस्ड् बै अ विसर्ग टु प्रिवेण्ट् इट् बीङ्ग् कन्वर्टेड् टु एनिथिङ्ग् एल्स्. सो शर्परे खरि विसर्जनीयस्य विसर्जनीयः न तु अन्यत्. दिस् इस् एन् एक्सेप्शन् टु एव्रिथिङ्ग् एल्स् विच् यु सी. इफ् द खर् इस् फालोड् बै अ शर् वर्ण, देन् द विसर्ग विल् नाट् बी चेञ्ज्ड् एट् एनी केस्. कः त्सरुः इत्यस्ति. त्सरुः नाम खड्गमुष्टिः. अत्र कः? त् स् तकारः खर्वर्णः, तत्परत्वेन अस्ति सकारः शर्वर्णः. शर्परे खरि विसर्गस्य स्थाने विसर्ग एव भवति. कः त्सरुः इत्येव रूपम्. एवमेव घनाघनः क्षोभणः. ककारः अस्ति, ककारः खर्वर्णः, तस्य अग्रे षकारः मूर्धन्यषकारः अस्ति, सः शर्वर्णः. शर्परे खरि विसर्जनीयस्य विसर्जनीय एव स्यात् घनाघनः क्षोभणः. दिस् इस् वै वेर् एवर् यु हेव् क्ष, द प्रीवियस् विसर्ग हेस् टु बी प्रनौन्स्ड् इन् फुल्, वेदर् इट् इस् विष्णुसहस्रनाम क्षमः क्षामः समीरणः आर् द इन् इवन् इन् द वेदास् यु फैण्ड् रविसेस् नमः क्षत्रुभ्यः इत्यस्ति चेत् नमः क्षत्रभ्यः इति जिह्वामूलीयः न भवति. वेर् एवर् देर् इस् क्ष, द विसर्ग हेस् टु बि प्रनौन्स्ड् कम्प्लीट्लि. इह यथायथं सत्त्वं जिह्वामूलीयश्च न. कः त्सरुः? इन् केस् आफ् कः त्सरुः, विसर्जनीयस्य सः इत्यनेन विसर्जनीयस्य स्थाने सकारः प्राप्नोति. घनाघनः क्षोभणः इत्यत्र ककारे परे कुप्पोः कः पोच इति जिह्वामूलीयः प्राप्नोति. So, but as I told, Sharpare Visarjaniyaha is an exception to everything. It's an exception to Visarjaniyasya Saha, to Kuffo Kapoza, everything. It overrules everything and the Visarga remains as Visarga. Sharpare Visarjaniyaha. Tataha Va Shari. Padadvayam. Visarjaniyasya Saha ityataha Visarjaniyasya ityanu vartate. षट्परे विसर्जनीयः इत्यतः विसर्जनीयः इति अनुवर्तते. एकं षष्ठ्यन्तम् अपरं प्रथमान्तम्. शरि इति सप्तमी विभक्तिः. शर् वर्णे परे श ष स इत्येतेषु परेषु विसर्जनीयस्य अर्थात् विसर्गः विसर्गस्य स्थाने विसर्जनीयः प्रथमा विभक्तिः विसर्गः विसर्गस्य स्थाने विसर्ग एव भवति विकल्पेन. सो द प्रीवियस् सूत्र टोल्ड् विसर्ग इस् रिप्लेस्ड् बै अ विसर्ग. दिस् इस् आल्सो मेण्डेटिङ्ग् अ विसर्ग इन् प्लेस् आफ् अ विसर्ग आप्शनलि. शरीपरे विसर्जनीयस्य विसर्जनीय एव स्यात् वा, यथा हरिः श्वेते इत्यस्ति अत्र वा शरि इत्यनेन विसर्गादेशे हरिः श्वेते इत्येव रूपं. तदभावे सिन्स् दिस् इस् एन् आप्शनल् सूत्र यु आल्सो हाव् विसर्जनीयस्य सह अप्लयिङ्ग् टु गिट् सकार विच् इन् टर्न् इस् कन्वर्टेड् टु षकार बै स्तोश्चुनाश्चुः. हरिश्येते हरिः श्वेते इति रूपद्वयम्. Right? So in the previous slide, Ravi Chandranji had a question. What is yathayatham? Iha yathayatham jihva sattvam jihva muli yashchana. Yathayatham means respectively. So in kahat saruhu there is no sattva, and in ghanaghanaha kshobhanaha there is no jihva muliya. It means respectively. There is no satkara and jihva muliya in the given examples respectively. वा शरि विकल्पेन वाट्स् हेपनिङ्ग् सारि शरि श श स इत्येतेषु परेषु विकल्पेन विसर्गस्य स्थाने विसर्गः. सो नौ इफ् द विसर्ग इस् फालोड् बै श श स देर् आर् टु फार्म्स्, वन् वित् अ विसर्ग एण्ड् वन् वित् अ सकार. इफ् इट् इस् क और् प, वि हव् आलरेडि सीन् दट् देर् इस् इफामूलीय और् उपध्नानीय. इफ् इट् इस् द अदर् कर्कश व्यञ्जना च छ ट ठ और् त थ, वि हेव् कम्पल्सरी सकार. And if that khar varna happens to be followed by a shar varna, there is compulsory visarga only. Now, khar pare shari va visarga lopo vaktavyaha. Shari visargasya visarga eva iti drishtam. Khar pare shari, if that shar varna is followed by a khar varna, then what happens? The visarga is deleted optionally. Ramaha sthata ityasti. सकारः रामः विसर्गः, सकारः खर्व शर्वर्णः, तदग्रे थकारः खर्वर्णः. खर्परे शरि विसर्गलोपः, आप्शनलि द विसर्ग इस् डिलीटेड्, सो इट् बिकम्स् रामस्थाता. अनेन वार्तिकेन इदं वार्तिकं खर्परे शरि वा विसर्गलोपो वक्तव्यः इत्यनेन विसर्गस्य लोपे रामस्थाता. तदभावे वा शरि इत्यनेन विसर्गस्य स्थाने विसर्ग एव भवति रामः स्थाता. तस्यापि अभावे विसर्जनीयस्य सह इत्यनेन सकारे रामस्थाता. सो देर् आर् त्री फार्म्स्, वन् वेर् द विसर्ग इस् डिलीटेड्, वन् वेर् द विसर्ग रिमेन्स् एस् विसर्ग, एण्ड् द थर्ड् वेर् इट् इस् कन्वर्टेड् टु सकार. सिमिलर्लि हरिः स्फुरति, सकारः शर्वर्णः, थकारः खर्वर्णः. खर्परे शरि वा विसर्गलोपः, हरि स्फुरति वा शरि इत्यनेन विसर्गस्य स्थाने विसर्गे हरिः स्फुरति. विसर्जनीयस्य सत्त्वे हरिस्फुरति. पक्षे विसर्गे सत्त्वे च त्रैरूप्यम्. अस्य वार्तिकस्य वार्तिकपक्षे वार्तिकप्रवृत्तिपक्षे लोपः, तदभावपक्षे विसर्गे एकं रूपं, विसर्गस्याप्यभावे सत्त्वे aparam rupam. So there are three forms when visarga is followed by shar, which in turn is followed by khar. So this vartika is actually the only instance where the visarga gets deleted directly. In all other cases where we seem to see visarga lopa is actually not the lopa of a visarga. This is the only case where the visarga is directly deleted. Visarga lopaha nama esha eva. So I think we'll stop here, and in the next class we'll see Kuppoh Kahpocha again and what are the apavadas to Kuppoh Kahpocha. we saw today are visarjaniyasya saha tasya apavadaha. Tataha gupvoskav paucha ityanena kavarge pavarge chapare visargasya sthane jishvamuliyaha upadmaniyascha bhavati. Kintu tasyapi apavadaha santhi yatha yashaskamaha namaskaroti ityadishu payaspasham ityadishu jishvamuliyaha upadmaniyascha nabhavati. Tada kim bhavati iti agrimakakshayam pashyam. Any doubts so far?
Swamiji, one unrelated question.
Yes.
In Vishnu Tratha, the word Tratha, is it like Dhata, Drujanta?
Yes. Trayate, he who protects Sorry. Is Tratha.
Okay.
Vasuji?
Hello?
Huh, tell me.
Yeah. The example is Saha Yesha.
Huh.
Saisha.
Huh.
Saisha. There is Prayoga only in Ramayana kind of this one. I think that's...
Not only the Ramayana, but in the Kavya. That is, in Padya Kavya. Because that particular rule says Padapurane, when the Pada has to be filled. If you have Sa Eshaha separately, the Pada will not be filled. So that is a special rule which says...
I have seen one prayer, this one, Saisha Devi Sagala Bhunat Prasthana
Kaam. But that is Sa Esha, where there is no Visarga, so you can easily do the Vriddhi Santhi. The problem comes in Saha Eshaha because there is Lopa Shakalyasya, and since it is Asiddha, we cannot do any Swara Sandhi after that. So it's only in Pullinga. If it is Trilinga, it is Sa and Esha, where it is Vriddhi Rechi, normal ones.
Oh, okay. So
yes.
Here, what rule is just Sadhu Prayoga or is
it? No. There is a rule which says Sochi Lope Chet Padapuranam. So the supratyaya itself gets lopa if the pada will be filled only in that case. So it is one which makes which enables chandas.
So that is neither covered in the Vartika nor in the sutra.
No, it is a sutra. It is a sutra. Panini sutra, which we'll see later. Yeah. Shada Gopanji.
We are talking about Vartikas.
Yes.
Now, in the Sutra Pata, there are some Vartikas, but they are very few in number. But now I find in this Siddhant County, the Vartika numbers itself running into some 5,000 and things like that.
So, correct, because the Vartikakara has written.
Is it taken from the Vritti of
Mahabhashyam
or something like that?
No, the Vartikas itself, the Katyayana's Vartikas, they are like a commentary for the Ashtadhyayi. So for every sutra, the Vartikakara gives many Vartikas, giving exceptions, and sometimes he himself answers those objections. And sometimes the Bhashyakara answers the objections and takes off the Vartika. So finally the Vartikas which are accepted by the Bhashyakara are very few. But the Vartikas themselves are thousands in number, because that is what Vartikakara told. It is everything that Vartikakara told is called a Vartika. But the accepted Vartikas are few in number, because Bhashyakara generally manages to prove that whatever the Vartikakara said has already been thought of by Panini, and he proves that in a different way. But there are some cases where the Vartikas are required, because we cannot get that from the sutra. So the number of accepted Vartikas is very low compared to the actual number of Vartikas. So the Vartika numbers which you have in the Kaumudi are the actual Vartika number in the Bhashya, as in on which the Bhashyakara has written his commentary. And the traditional Sutra Patha also does not list all the accepted Vartikas, I think. I mean, the book which I have of Ashtadhyayi, which gives Vartikas, but it does not give all the Vartikas at all. Dikshita, in the Kaumudi there are many more Vartikas than in my Sutrapatha. So I don't know what is the actually criterion why, where they have selected the Vartikas, if you have to look into. Okay. There is one more question by Priya where he says, in Sa Eshaha, can we also have Sa Eshaha where there is a Yakara? Yeah, we can have because Lopashakalya says optional. But the more commonly used form is Sa Eshaha with the Lopa and not with the Yakara. Both are correct, of course. Okay. Any more questions? ಏನಾಕ್ಷರಫಲಂ ನಾನಾಧಿ ಅಮೋಹ ಸ್ವರಾತ್ ಕೃತ್ನಂ ವ್ಯಾಕರಣಂ ಪ್ರೋಕ್ತಂ ತಸ್ಮೈ ಪಾಣಿನೇ ನಮಃ ಮುನಿತ್ರಯನ್ ನಮಸ್ಕೃತ್ಯ ತರುತ್ತೀಃ ಪರಿಭಾವ್ಯ ಚ ವೈಯಾಕರಣ ಸಿದ್ಧಾಂತ ಕೌಮುದೀಯಂ ವಿರಚ್ಯತೆ.